ओम सहस्रशीर्ष पुरुष सहस्राक्ष सहस्रपात सभूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् उतामृ तत्त्वस्येषा नो यदन्नेनातिरोहति एतावानस्य महिमातोऽध्यायांश्च पूरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्ध्व उदयीत् पुरुषः पादोऽस्येहा भवत्पुनाः ततो विश्वं व्यक्रामत्शासनादशने अभि तस्माद्विराळ जायत विराजोऽधिपूरुषः स जातो अत्यरिचि यतपश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वत वसन्तो अस्यासीदाज्यं ग्रीष्म इद्मशरद्धविः तं यज्ञं बर्हिषि प्रौक्षं पुरुषं जातमग्रतः तेन देवा अयजन्त साध्यर्षयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतं बृहदाज्यम् पशून्तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत तस्मादश्वा अजायन्त एते चोभयादतः गावोह जज्ञिरे तस्मात्तस्माज्जाता अजावयाः यत्पुरुषां व्यदधोः कतिधा व्यकल्पयन् मुखं किमस्य कौ बाहू का ऊरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पदव्यां शूद्रो अजायत चन्द्रमा मनसो जातश्चक्षोस्तूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षं शीर्ष्णोद्यौ समावर्तत पद्व्यां भूमिर्दिश श्रोत्रात् तथा लोकाम् अकल्पयन् सप्तास्यासन् परिधयस्त्रिसप्त समिधः कृताः देवा यदि यज्ञन्तन्वाना अबध्नन् पुरुषम् पशुम् यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् तेहनाकम् महिमानस्य चन्त यत्र पूर्वे साध्याः सन्ति देवाः